नमस्कारः सर्वेषां नूतनन्यायवर्गे स्वागतं। गतवर्गे अस्माभिः एकः सिद्धान्तः परिशीलितः, अवच्छेद्य अवच्छेदकभावः इति सिद्धान्तः। तत्र च अस्माभिः दृष्टं यत् प्रतियोगिता प्रतियोगिनी वर्तते, अपि च प्रतियोगिनी पुनः कश्चन धर्मः वर्तते, सः धर्मः अवच्छेदकः भवति प्रतियोगितायाः, अपि च प्रतियोगिता अवच्छेद्या भवति इति। तत्र सर्वे पञ्चविंशतितमपुटं पश्यतु कृपया, पञ्चविंशतितमपुटं पश्यन्ति वा? विजया भगिनी पश्यति? अस्तु, नूतनतया केन आगतं? राधिका भगिनी खलु?
नमस्कारः भगिनि।
नमस्कारः। अस्तु विजया भगिनी, पञ्चविंशतितमपुटे एकं चित्रमस्ति, वृष्टिजलत्वम् अभावः इत्यादिकं, तस्य किञ्चित् विवरणं करणीयम् अधुना।
आं भगिनि, वृष्टिजले निष्ठ वृष्टिजलत्वं तत्र अवच्छेदकम्। अनन्तरं वृष्टिजले
प्रथमतया किं किं कस्मिन् अस्ति इति उक्त्वा तदनन्तरं वाक्यं रचयतु, अस्तु?
अस्तु भगिनि, वृष्टिजले वृष्टिजलत्वम् अस्ति, वृष्टिजले प्रतियोगिता अपि अस्ति तत्र। वृष्टिजलत्वम् इत्युक्ते तत्र अवच्छेदकं, प्रतियोगिता तत्र अवच्छेद्यता इति अस्ति तत्र। सम्यक् वा भगिनि?
हा, प्रतियोगिता अवच्छेद्या, तस्मिन् अवच्छेद्यता, समीचीनम्। अस्तु तदनन्तरं
वृष्टिजले निष्ठ वृष्टिजले निष्ठ वृष्टिजलत्वं वा
अभावस्य वर्णनं
वृष्टिजले वृष्टिजलत्वं निष्ठ अवच्छेदकता निरूपित इति आगन्तव्यं वा?
मम प्रश्नः एकनिमिष, अभावस्य वर्णनं करोतु, तत्र अभावः इति दृश्यते खलु?
वृष्टिजले वृष्टिजलत्वं निष्ठ अवच्छेदकता निरूपित अवच्छेद्यताश्रय जलनिष्ठ प्रतियोगिता निरूपित अनियोगिताश्रय अभावः।
हा, बहु समीचीनमस्ति भगिनी। तद्वदेव विपरीतदिशि, विपरीतदिशि अभावात् आरभ्य वृष्टिजलत्वपर्यन्तं गच्छति चेत्
अभावनिष्ठ अनियोगिता निरूपित जलनिष्ठ प्रतियोगिता निष्ठ अवच्छेद्यता निरूपित अवच्छेदकतावत् आश्रय जलत्वम्।
हा, अवच्छेदकतावत् इति वदतु अथवा आश्रय इति वदतु, अस्तु, द्वयोः प्रयोगः।
अवच्छेदकतावत् जलत्वं
वृष्टिजलत्वं
केवलं
जलत्वम् इति न वक्तव्यं खलु, अत्र वृष्टिजलत्वम् अस्ति, तदर्थमेव तदर्थमेव वृष्टिजले या प्रतियोगिता अस्ति सा भिन्ना, जले या प्रतियोगिता अस्ति सा भिन्ना, स्वातिनक्षत्रीयवृष्टिजले या प्रतियोगिता सा भिन्ना। किमर्थमिति चेत् एकत्र जलत्वम् अवच्छेदकम्, अपरत्र वृष्टिजलत्वम् अवच्छेदकम्, पुनः अपरत्र
स्वातिनक्षत्रीयवृष्टिजलत्वम्
इति कृत्वा त्रिषु स्थलेषु प्रतियोगिताः भिन्नाः इति आगच्छति किल? हा, इति मनसि भवेत्। बहु समीचीनमस्ति भगिनि, सम्यक्। अस्तु,
गृहपाठं कृतवती भगिनि।
हा, बहु सम्यक् अस्ति भगिनि। हा, गृहपाठः पटाभावः नीलपटाभावः इति आसीत् खलु, तद् अन्ये केऽपि कुर्युः इति। रघुपतिमहोदय, गृहपाठत्वेन यथा भगिनी उक्तवती तद्वद् पटाभावः नीलपटाभावस्य विषये चित्रं रचयित्वा विवरणीयं कृतमस्ति वा?
न कथं भगिनि अहं वक्तुं शक्नोमि.
अस्तु वदतु.
चित्रं दृष्ट्वा पटाभावः नील
पटाभावविषये वदतु.
पटाभावः पटे पटाभावः अस्ति पटे प्रतियोगी.
पश्यतु तदेव पटे किम् अस्ति प्रथमतया पटाभावः पटे अस्ति वा?
सारि 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 पटे पटत्वम् अस्ति प्रतियोगिता अपि अस्ति. अत्र पटत्वनिष्ठ अवच्छे अभावस्य निरूपणं पटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेदता आश्रय पटनिष्ठ प्रतियोगिता निरूपित अनियोगिता आश्रयः पटाभावः.
बहु समीचीनं महोदय. अस्तु विपरीतदिशि.
विपरीतदिशि पटाभावनिष्ठ अनियोगिता निरूपित पटनिष्ठ प्रतियोगिता निष्ठ अवच्छेदता अवच्छेद्यता निरूपित अवच्छेदकता आश्रयः पटत्वम्.
पटत्वं बहु समीचीनं. सम्यक्. तर्हि अन्ततो गत्वा अत्र अवच्छेदकम् अवच्छेदकं किम् अस्ति?
अवच्छेदकम् अवच्छेदकं पटत्वम् अस्ति. अवच्छेदता प्रतियोगिता अस्ति. अवच्छेद्या प्रतियोगिता अस्ति. अवच्छेद्या.
हा बहु सम्यक् इति एव वार्ता अस्ति. समीचीनम्. अस्तु भानुचैतन्यमहोदय एवमेव नीलपटाभावस्य विषये वक्तुं शक्नोति वा?
पटाभाव महोदय.
नीलपटाभावः.
नीलपटाभावः. नीलपटाभावः अनियोगिता निरूपित.
महोदय महोदय प्रथमतया किं कस्मिन् अस्ति इति वदतु. यथा चित्रे अस्ति तद्वत् किं किं कस्मिन् अस्ति इति एकवारं वदतु.
नीलपटे नीलपटत्वम् अस्ति. तस्य अभावः अनियोगिता अस्ति. नीलपटे प्रतियोगिता अपि अस्ति.
नीलपटे वस्तुद्वयं
नीलपटत्वं प्रतियोगिता द्वयम् अस्ति.
नीलपटाभावे किमस्ति?
अनियोगिता अस्ति.
अनुयोगिता अस्ति. अस्तु प्रतियोगिता अनुयोगिता इति विरोधस्य नामकरणं कृतमासीत् खलु? अभावस्थले विरोधद्वयं वर्तते. द्वौ विरोधिनौ वर्तेते. अस्तु तयोः यः विरोधः तस्य नामकरणम् इति समीचीनम्. अस्तु महोदय अधुना अधुना नीलपटाभावस्य वर्णनं करोतु.
नीलपटाभाव निष्ठा अनुयोगिता.
महोदय प्रश्नः कः आसीत्? नीलपटाभावस्य वर्णनं करोतु इति खलु. तथा चेत् किं करणीयं?
नीलपटत्वम् अवच्छेदकता इति.
ततः आरभ्य अभावपर्यन्तं गच्छतु.
नीलपटत्वं नीलपटे निष्ठा नीलपटत्वं तस्य निष्ठा अवच्छेदकता अवच्छेदकता निरूपित अवच्छेद्यता तत् निष्ठा प्रतियोगिता.
एकनिमिषः एकनिमिषः. प्रथमनियमः कः आसीत् अस्माकम्? उपरि गमनार्थं निष्ठा खलु. निष्ठा इति
उपरि गमनार्थं निष्ठा.
अधोगमनार्थम्?
अधोगमनार्थम् आश्रयः.
आश्रयः अथवा वान् वति वत् इति तत् सर्वम् उपयुज्य. अस्तु आरम्भतः वदतु अधुना.
पुनरेकवारं वदतु महोदय. आश्रयः अथवा
वान् वति अवच्छेद्यतावती प्रतियोगिता. वती इति वक्तव्यं यतो स्त्रीलिङ्गे अस्ति प्रतियोगिता. यदि गुणः इति आसीत् चेत् वान् इति पुल्लिङ्गे वक्तव्यम्. वत् इति नपुंसकलिङ्गे इति अस्माकं पाठः जातः खलु. अधोगमनार्थं मतुप् इति प्रत्ययः. तस्य वान् वति वत् इति रूपाणि. उपरि गमनार्थं निष्ठा यतोहि निष्ठा इति आधेयं सूचयति. अस्तु, आधेयः इत्युक्ते किम्?
आम्, आधेयः यत्र अन्यम् अस्ति तिष्ठति,
अधिकरणे यद् तिष्ठति,
गुणं वा,
हा, अधिकरणे यत्किमपि अस्ति सः आधेयः इति वदामः खलु. यः उपरि अस्ति सः आधेयः, आधेयं प्रति आधेयः इति सूचयितुं निष्ठ इति, अधोगमनार्थम् इति चेत् अधिकरणं सूचयामः, तत्र आश्रयः इति वक्तव्यम्. अस्तु महोदय, अधुना नीलपटाभावः इति भवतः विषयः, तर्हि तस्य वर्णनं करोति.
नीलपट निष्ठा नीलपटत्वं, नीलपटत्वनिष्ठा अवच्छेदकता, अवच्छेदकता निरूपित अवच्छेद्यता आश्रय प्रतियोगिता, प्रतियोगिता निरूपिता अनियोगिता नीलपट अभावः.
अस्तु, अनुयोगिता
आश्रयः, अनियोगिता आश्रयः नीलपट अभावः.
बहु समीचीनम् अस्ति. अस्तु, अधुना अभावात् आरभ्य वृष्टि न क्षम्यतां नीलपटत्वं तत्पर्यन्तं.
नीलपट अभावः निष्ठा अनियोगिता, अनियोगिता नीलपट अभावः निष्ठा अनियोगिता निरूपिता प्रतियोगिता, तद् आश्रयः इति वक्तुं शक्नोति महोदय, अवच्छेद्यता?
तद् न वक्तव्यं खलु महोदय, अधुनैव किम् उक्तं, निष्ठा इति प्रयोक्तव्यं खलु उपरि गमनार्थम्. हा, प्रतियोगिता निष्ठा, आधेयता निरूपित अवच्छेदकतावत् वृष्टिजलत्वम् अथवा क्षम्यतां नीलपटत्वम् इति भवति किल?
आम् महोदय.
नीलपटाभावनिष्ठानुयोगिता निरूपित नीलपटनिष्ठप्रतियोगिता निष्ठ अवच्छेद्यता निरूपित अवच्छेदकतावत् नीलपटत्वम् इति आगच्छति.
अवच्छेदकता निष्ठा जलत्वम् इति वक्तुं
न महोदय, अधुनैव उक्तम् अधोगमनार्थम् आश्रयः. भवतः यद्यपि तत्र एरो चित्रे उपरि दत्तमस्ति, भवतः आशयः कः? नीलपटत्वपर्यन्तं गन्तुं खलु, तर्हि अधः गच्छतु. अधोगमनार्थम् आश्रयः अथवा वत्, यतोहि नीलपटत्वम् इति नपुंसकलिङ्गे अस्ति, तर्हि अवच्छेदकतावत् नीलपटत्वम् इति वक्तव्यम्. हा, तदर्थमेव केवलं यन्त्रवत् अस्तु, शरः उपरि गच्छति तत्र चित्रे अथवा अधः गच्छति इति मास्तु, चिन्तनमपि भवतु मनसि. अस्तु, अहम् आधेयं सूचयितुम् इच्छामि वा अथवा अधिकरणं सूचयितुम् इच्छामि वा इति चिन्तयित्वा वक्तव्यं भवति. अस्तु
महोदय,
समीचीनं. कोऽपि अस्ति वा नूतनतया? सरला भगिनी, अजितमहोदय इति भाति खलु? नमस्कारः महोदय, समीचीनं.
महोदय, अहं मेहुला अस्मि, परन्तु अहं केवलं शृणोमि, इदानीम् अहं कार्याने अस्मि.
अस्तु अस्तु महोदय, मेहुला महोदय इति अपि दृष्टं, सम्यक्. अस्तु, तर्हि सर्वेषां कश्चन अभ्यासः जातः अवच्छेद्य अवच्छेदकभावनिरूपणे इति समीचीनवार्ता. अस्तु, इतः अग्रे गच्छेम. आना भगिनी, पठितुमिच्छति वा षड्विंशतितमपृष्ठे निरूप्यनिरूपकभावः इत्यादिकम्?
अस्तु, निरूप्यनिरूपकभावः अवच्छेद्य अवच्छेदकभावः च सर्वत्र भवति. अत्रयं विशेषः सम्बन्धः यः कोऽपि अस्तु, निरूप्यनिरूपकभावः तत्रावश्यं भवति, अवच्छेद्य अवच्छेदकभावः च. अधार अधेयभावे इदं चिन्तयामः. पूर्वोक्त उदाहरणे यज्ञदत्तनिष्ठ अधीयत निरूपित अधिकारणताक्षयः आसनमित्यत्र आधारत अधीयतयोः निरूप्य निरूपकभावः यथा वर्तते तथा अधीयतयः एवम् अधिकारणतयः समानाधिकारणार्धमस्य च अवच्छेद्यवच्छेदकभाव अपि भवति.
सहायम् अपेक्षितं वा विवरणार्थम्?
आम्.
अस्तु, तर्हि शिवरां महोदय कृपया किञ्चित् विवृणोति वा यत् पठितं भगिन्या?
आं भगिनि, सम्बन्धः कोऽपि अस्तु, निरूप्यनिरूपकभावत्र अवश्यं भवति. सम्बन्धः किमपि भवेत्, निरूप्यनिरूपकभावः अवच्छेद्य अवच्छेदकभावः तत्र भवति. अत्र आधेय सम्बन्धः इति स्वीकृत्य अवच्छेद्य अवच्छेदकताभावः कथमस्ति एतस्य अत्र निरूपणं कृतमस्ति. यत् उदाहरणं वयं पूर्वतन पृष्ठे वा पूर्वतनकाले वयं स्वीकृतवन्तः, आधार तथा आधेयस्य, यज्ञदत्त आधेय अस्ति, आसनं तस्य आधारः अस्ति. एतत् उदाहरणं स्वीकृत्य अत्र अवच्छेद्य अवच्छेदकभावस्य अत्र निरूपणं कृतमस्ति.
हा, आरम्भे केवलम् आसनम् इत्यस्य विवरणं कथमासीत् इति उक्तं तत्र.
आसनं यज्ञदत्त निष्ठ आधेयता निरूपित अधिकरणताश्रयः आसनम्
हा, समीचीनं महोदय. इति आसनस्य आसने अधिकरणता आसीत् इति आसनस्य निरूपणं सम्यक्. तत्र कीदृशभावः आसीत्?
आसने अधिकरणता
इति सत्यं, तत्र आधाराधेयभावः आसीत्.
आधाराधेयभावः आधेयता निरूपित अधिकरणता
अतः निरूप्यनिरूपकभावः अपि आगतः.
तत्र अधीयता अधिकरणता मध्ये निरूप्यनिरूपकभावः तत्र अस्ति.
हा, बहु समीचीनम्. अस्तु, अत्र अस्माकं विषयः कः? अवच्छेद्य अवच्छेदकभावः इति खलु. इति पठतु, यथा वर्तते तथा आधेयतायाः इति अन्तिमवाक्यं पठतु.
यथा वर्तते निरूप्यनिरूपकभावः यथा वर्तते तथा आधेयतायाः एवम् अधिकरणतायाः समानाधिकरणधर्मस्य च अवच्छेद्य अवच्छेदकभावो अपि भवति. निरूप्यनिरूपकभावः यथा वर्तते तथा आधेयतायाः एवम् अधिकरणतायाः तथा अधिकरणतायाः समानाधिकरणधर्मस्य च, तत्र समानाधिकरणम् अस्ति तत्कारणेन अवच्छेद्य अवच्छेदकभावमध्ये अपि निरूप्यनिरूपकभावः तत्र वर्तते.
हा, तर्हि भवता वक्तव्यम् अधुना समानाधिकरणधर्मः कः तत्र इति. चित्रे किं समानाधिकरणधर्मः इति किं सूचितम्?
एवम् अधिकरणतायाः आधेयता तथा अधिकरणता मध्ये समानाधिकरणधर्मः आधेयतायाः एवम् अधिकरणतायाः आधेयता तथा अवच्छेद्यकता तथा अधिकरणता तथा अवच्छेदकता एतयोः मध्ये समानाधिकधर्मः.
अस्तु, तस्य अवगमनार्थं प्रथमं चित्रस्य भागद्वयं वर्तते किल. वामभागे यदस्ति तद् परिशीलयतु, तत्र किमस्ति? महोदय,
यज्ञदत्तत्वं निष्ठ अवच्छेदकता निरूपित अवच्छेद्यता अवच्छेद्यता आश्रयः यज्ञदत्तनिष्ठ अधेयता
इति सत्यं बहु सम्यक् अस्ति. तत्र समानाधिकरणधर्मः इति उक्तं. तर्हि मम प्रश्नः अस्ति, सामानाधिकरण्यं कयोः मध्ये अस्ति? सामानाधिकरण्यम् इति किञ्चित् वक्तव्यं. सामानाधिकरण्यम् इत्युक्ते अधिकरणं समानम्,
अधिकरणं समानं
इत्यस्य समानम् अधिकरणं समानाधिकरणं तस्य भावः समानाधिकरण्यम्. अत्र समानाधिकरणधर्मः इति उक्तं, सः धर्मः कः? यज्ञदत्ते किम् अस्ति?
यज्ञदत्ते अधेयता अस्ति.
अपि च
यज्ञदत्ते अधेयता अस्ति तथा अवच्छेद्यता.
महोदय नितरां नास्ति,
यज्ञदत्ते अधेयता,
यज्ञदत्ते अधेयता एव अस्ति. अपि च किम् अस्ति? यज्ञदत्ते एकः धर्मः अस्ति, इति एव वार्ता तत्र खलु. यथा नीलपटे इत्येव उक्तम्, आधेयतायाः अधिकरणतायाः समानाधिकरणधर्मः भवेत् इति. आधेयतायाः समानाधिकरणधर्मः कः?
न अवगतम्. आधेयतायाः
समानाधिकरणधर्मः कः? रघुपतिमहोदय अवगच्छति वा? हा, भानुचैतन्यमहोदय.
यज्ञदत्तत्वं महोदय.
हा, यज्ञदत्तत्वं त्वम् इति अस्ति खलु. अस्तु, तर्हि तर्हि यः कोऽपि समानाधिकरणधर्मः भवति सः किं भवति? अत्र अवच्छेदकं भवति किल. आदेयता अवच्छेद्य एवमेव. आसने कीदृशी स्थितिः इति विवृणोतु.
आसने आसनत्वम् अस्ति, आसने अधिकरणता अस्ति. तत्र आसनत्वं तथा अधिकरणता मध्ये समानाधिकरणधर्मः.
हा, समानाधिकरण्यम् अस्ति.
समानाधिकरणत्वम् आसनत्वं तथा अधिकरणता द्वयोः मध्ये समानाधिकरणं तत्र वर्तते.
समीचीनं. तर्हि अवच्छेदकं किं तत्र?
अवच्छेदकम् आसनत्वम्.
अवच्छेद्य
आसननिष्ठ अधिकरणता.
हा, बहु सम्यक्. अस्तु, अधुना तद् दक्षिणभागे यदस्ति तद् विवृणोतु किञ्चित्.
आसनत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रयः आसननिष्ठ अधिकरणता.
हा, बहु सम्यक् इति एव वार्ता अस्ति. अधुना वामभागे यद् चित्रमस्ति अपि च दक्षिणभागे यद् चित्रमस्ति तयोः मध्ये सम्पर्कः कुत्र कृतं? सम्पर्कः कुत्र? हा, किमर्थं तथा?
अधीयता तथा अधिकरणता मध्ये निरूप्य निरूपकभावः वर्तते.
हा, बहु समीचीनं. तिरश्चीने शरे निरूपित इति स्थापयामः खलु. शिरश्चीनः शरः कुत्र गच्छति, कुतः आरभ्य कुत्र इति द्रष्टव्यं. तत्रैव निरूप्य निरूपकभावः. अस्तु, तर्हि एकं दीर्घं वाक्यं रचयितुं शक्नोति वा उभयोः
सम्पर्कं? दत्तत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रयः यज्ञदत्तनिष्ठ आधेयता निरूपित आसनत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रयः आसननिष्ठ अधिकरणता.
हा, बहु सम्यक् अस्ति. सर्वेषां नैपुण्यं जातम् इति भाति. समीचीनं. इति एव
गृहपाठं.
हा,
किञ्चित् गृहपाठं कृतम् इति गतशनिवासरे किञ्चित् क्लेशः अभवत्.
हा हा, समीचीनं महोदय. सम्यक् अस्तु. इति एकं दीर्घं वाक्यमासीत्. केवलम् अस्माभिः यत्किमपि ज्ञायते, इष्ट आश्रय इत्यादिकम् उपयुज्य एकं दीर्घं वाक्यं रचितमस्ति. तावदेव, नूतनं किमपि नास्ति। अस्तु अग्रे सरेम तर्हि। श्रीधरः महोदय अग्रे पठति वा?
मम एकः प्रश्नः, अवच्छेदकम् अवच्छेद्यं मध्ये वन् टु मेनि सम्बन्धः भवति वा?
भवितुम् अर्हति महोदय, अवश्यम् अवश्यं भवति। वन् टु मेनि इति कस्मिन् सन्दर्भे इति चिन्तयतु किञ्चित्।
अत्र अवच्छेदकः यज्ञदत्तम् अवच्छेदकः, आदेयता अवच्छेदिता, अवच्छेद्या अन्यदृष्ट्या प्रतियोगिता अपि अवच्छेदिता भवति, अवच्छेदकः यज्ञदत्त्वम्। अतः अवच्छेदकम् एकः, अवच्छेदिता द्वयमस्ति।
अवश्यं भवितुमर्हति। समीचीनं, चिन्तनं समीचीनं, परन्तु एकस्मिन् सन्दर्भे वयम् एकमेव स्वीकुर्मः खलु, एकमेव विषयं स्वीकृत्य परिशीलनं कुर्मः किल। अत्र तु यज्ञदत्तः आधेयरूपेण स्वीकृतः खलु, तदर्थम् आधेयता अवच्छेद्या अभवत्। यदि वयं यज्ञदत्तस्य अभावस्य विषये चिन्तयामश्चेत् तदा यज्ञदत्तः प्रतियोगी जातः, तदा प्रतियोगिता अवच्छेद्या भवति। परन्तु एक वन् टु मेनि इति यद् भवान् वदति तद् सत्यमेव, परन्तु एकस्मिन् सन्दर्भे एकमेव अवच्छेदकम्, एकमेव अवच्छेद्यम् अथवा अवच्छेद्य इति यत्किमपि तथा अस्ति। अस्तु अस्तु महोदय अग्रे।
तथा च निरूप्य निरूपकभावम् अवच्छेद्या अवच्छेदकभावं च अन्तर्भाव्य यज्ञदत्तः आसने अस्ति यत्र इत्थं परिष्कारः भवति। यज्ञदत्त्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रय यज्ञदत्तनिष्ठ आदेयता निरूपित आसनत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रय अधिकरणता आश्रय आसनम्। दीर्घवाक्यं पुनः।
हा हा हा, तावदेव यद् महोदयेन उक्तं, निरूपकभावम् अवच्छेद्य अवच्छेदकभावं च स्वीकृत्य अन्तर्भाव्य यज्ञदत्तः आसने अस्ति इति परिष्कार, सामान्यलौकिकभाषायां किं वदामः, यज्ञदत्तः आसने अस्ति तावदेव। नैयायिकानां शैली एतादृशी अस्ति, यज्ञदत्तनिष्ठ अवच्छेदकता निरूपित इत्यादिकम् उक्त्वा अधिकरणताश्रयः आसनम् इति। अस्तु, फुट् नोट् इति किम् अस्ति महोदय?
निरूपितत्व अधिकरणतायां, निरूपितत्वमधिकरणतायां,
तस्य अर्थः कः?
निरूपितत्वम् अधिकरणतायाम्
आधेयता कां निरूपयति?
आधेयताम् अधिकरणता
निरूपयति इत्येव वार्ता, आधेयता अधिकरणतां निरूपयति, तदर्थम् उक्तं निरूपितत्वम् अधिकरणतायाम् अस्ति इति। द्वयोः भागयोः मध्ये सम्पर्कः कृतः आधेयता निरूपित अधिकरणता इति उक्त्वा वस्तुतः खलु,
निरूपितत्वम् आधेयतायाम् अपि अस्ति।
न न कः, एकनिमिषः, कः कं निरूपयति इति चिन्तयतु। आधेयता निरूपित अधिकरणता इति वदामश्चेत् तत्र निरूपकः कः, निरूप्या का? आधेयता निरूपित अधिकरणता इति वदामः चेत् तत्र निरूपकः अथवा निरूपिका आधेयता खलु, तया आधेयतया का निरूपिता, अधिकरणता निरूपिता। तर्हि निरूपिका अस्ति अथवा निरूपकः पुल्लिङ्गे अस्ति आधेयता, निरूपिता या अधिकरणता, तस्मिन् निरूपितत्वम् अस्ति इति अत्र वार्ता। अधुना विपरीतदिशि वक्तुम् इच्छति चेत् अधिकरणता निरूपिता आधेयता, तत्र वैपरीत्यं भवितुमर्हति। उत्तमं वा? समीचीनं महोदय, अस्तु अग्रे।
एवमेव वक्ष्यमाणपृथिवीलक्षणेऽपि गन्तवती पृथिवी इत्यत्र पृथिवी भवति अधिकरणं गन्धस्य आदेयः तथा च गन्धत्वनिष्ठ अवचेतकतानिरूपित अवचेद्यता आश्रय गन्धनिष्ठ आदेयतानिरूपित पृथिवीत्वनिष्ठ अवचेतकतानिरूपित अवचेतता आश्रय अधिकरणता आश्रय पृथिवी इति एवं परिष्कारः आलोचनीयः। अन्य एक उदाहरणं पृथिवी गन्धसम्बन्धः उक्तः एवं वक्ष्यमान इति भविष्यति भविष्यत्काले भवति पृथिवी
वदतु
एवमेव वक्ष्यमान पृथिवीलक्षणे अपि पृथिवीलक्षणे अपि गन्तवती पृथिवी इति अत्र पृथिवी भवति पृथिवी अधिकरणं भवति गन्धः आदेयः गन्धः आदेयः भवति पृथिव्यां गन्धः अस्ति
अतः आधेयता कुत्र अस्ति अधिकरणता कुत्र अस्ति
अधिकरणता पृथिवी आदेयः गन्धः
हा अस्तु तत्र सावधानतया वदतु सप्तमी विभक्तिप्रयोगः नितरां करणीयः अस्तु आधेयता कुत्र इति पश्यामश्चेत् आधेयता गन्धे अस्ति इति वक्तव्यम्
आधेयता गन्धे अस्ति अधिकरणता पृथिव्याम् अस्ति
पृथिव्याम् अस्ति अथवा अधिकरणं पृथिवी इति वक्तव्यम् आधेयः गन्धः इति प्रथमाविभक्तिप्रयोगः तथा भवति अस्तु अत्र केवलम् उदाहरणत्वेन दत्तं गन्धवती लक्षणग्रन्थः इति अग्रे आगच्छति खलु अधुना उद्देशग्रन्थे स्मः वयं लक्षणग्रन्थे पृथिव्याः लक्षणम् अस्ति गन्धवती पृथिवी इति तत्र एवमेव आधाराधेयभावं मनसि निधाय चिन्तनीयम् इति दत्तमस्ति उदाहरणं तावदेव स्पष्टं वा
स्पष्टं परिष्कारः इत्युक्ते
परिष्कारः इत्युक्ते इतोपि सम्यक्तया चिन्तनं तावदेव
परिष्कारः इत्युक्ते त्यक्तव्यं
न त्यक्तव्यम् इति नास्ति भगिनि समीकरणं समीचीनतया चिन्तनं तावदेव परिष्कारः आलोचनीयः
अस्तु भगिनि
सम्यक् अस्तु अग्रे सरेम तर्हि अस्तु अधुना नूतन अभावः इति विषये वयं स्मः परन्तु मूलग्रन्थे तर्कसङ्ग्रहे अभावस्य निरूपणं कथं क्रियते इति अग्रे अस्ति राधिका भगिनी पठति वा तत्र
आम् चतुर्विधत्वं प्रकृतमनस् अनुसरामः दर्शितदर्शितरीत्या अभावप्रक्रियापरिज्ञानाय सामान्य अभावद्यभावः निरूपिता ते चात्यन्त अभावस्य प्रभेदाः तर्कसङ्ग्रहकृता तु अभावश्च चतुर्विधः प्रागभावः प्रग्वंसभावः अत्यन्ताभावः अन्योन्याभावश्चेति इति दर्शितः अभावस्य विभागः अत्र अभावस्य चतुर्विधत्वम् इति एव अस्ति प्रकृतम् अनुसरामः दर्शितरीत्या अभाव पूर्वे वयं दृष्टवन्तः अभावप्रक्रियाया प्रक्रियापरिज्ञानाय सामान्य अभावद्यभावः निरूपिताः
प्रथमतया प्रकृतम् अनुसरामः इत्युक्ते भगिनि
प्रकृतम् अनुसरामः इत्युक्ते चिन्तयामः अथवा चर्चयामः तादृशम् आगच्छति वा
सत्यं प्रकृतम् इत्युक्ते प्रकृतः इत्युक्ते मूलविषयः अनुसरामः अत्र प्रकृतिः इति किमपि नास्ति मूलविषयम् अनुसरामः मूलविषयः तु अभावः अस्तु तर्हि पूर्वम् अभावप्रक्रियाज्ञानाय अभावः प्रतियोगिता अनुयोगिता कुत्र किं वर्तते प्रतियोगिता भेदः इत्यादि ज्ञानाय काः अभावः अस्माभिः दृष्टाः
सामान्य विशेष 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 अभावाः
इति अस्माभिः दृष्टाः इत्येव अत्र अत्र उक्तं तद् पदमस्ति सामान्याभावादि अभावाः अवगच्छति वा सामान्याभाव आदि इत्युक्ते सामान्याभावः विशेषाभावः विशेषविशेषाभावः त्रयः अभावः अस्माभिः परिशीलिताः अथवा तैः निरूपिताः अस्तु अग्रे भगिनि
ते चात्यन्ताभावस्य प्रभेदाः प्रभेदाः इत्युक्ते कः इति न जानामि भगिनि
प्रभेदः इत्युक्ते प्रकारः प्रकारः भगिनि टैप् अस्तु एते त्रयः अभावाः सामान्याभावादि अभावाः कस्य प्रभेदाः
अत्यन्ताभावस्य प्रभेदाः
अत्यन्ताभावस्य प्रभेदाः अस्तु सम्यक् परन्तु तर्कसङ्ग्रहे तु अभावः चतुर्विधः प्रदर्शितः पुनः वाक्यं पठतु तस्य
अभावश्चतुर्विधः प्रागभावः प्रग्वंसभावो अत्यन्तभावो अन्योन्यभावश्चेति
चतुर्विधः अभावः प्रागभावः प्रध्वंसाभावः तत्र विसर्गसन्धिः भूत्वा विसर्गस्य स्थाने ओकारः आगत्य प्रध्वंसाभावो इति अभवत् तदनन्तरं पूर्वरूपसन्धिः कोऽपि इति वदामः खलु कः प्लस् अपि कोऽपि तद्वत् प्रध्वंसाभावः अकारः लुप्तः अत्यन्ताभावः पुनः विसर्गसन्धिः भूत्वा ओकारः अत्यन्ताभावोऽन्योन्याभावः इति उक्तम्
भगिनि यदि मूलग्रन्थे एतादृशमस्ति खलु यदा वयं पठामश्चेत् भावो इत्येव पठनीयं वा अथवा भावः इति भग्नं कृत्वा पठनीयं वा
न सन्धिः कृतः चेत् तथा एव पठनीयम्
अस्तु अस्तु
खलु
इति दर्शितः अभावस्य विभागः अत्र एकं चित्रम् अस्ति चतुर्थः प्रघ्वंसभावः अत्यन्तभावः अन्योन्यभावः अत्यन्तभावः वयं जानीमः सामान्यभावः विशेषभावः विशेषविशेषभावः यदि जलत्वम् अस्ति अनन्तरं वृष्टिजलत्वं तदनन्तरं स्वातिनक्षत्रीयवृष्टिजलत्वं तादृशम् उपम वयं दृष्टवन्तः अनन्तरम् अत्र एवं विभागचित्रं स्यात् तदेव वयं चित्रं दृष्टवन्तः
हा समीचीनं भगिनि तर्हि वस्तुतः अभावः चतुर्विधः प्रागभावः प्रध्वंसाभावः अत्यन्ताभावः अन्योन्याभावः इति वयं यत्किमपि पूर्वं दृष्टवन्तः तत्तु अत्यन्ताभावस्य प्रभेदाः इति अत्र उक्तमस्ति समीचीनम् अस्तु सम्यक् आण्ड्रे महोदय अस्ति इति भाति खलु
नमस्कारः
अस्तु तर्हि अधुना अभावः चतुर्विधः इति ज्ञातः तर्हि कीदृशः अभावः प्रागभावः इत्युक्ते किं प्रध्वंसाभावः इत्युक्ते किम् इत्यादिकम् अग्रे दत्तमस्ति पठेम तत्र सरला भगिनी पठति वा
आं भगिनि अत्र एवं विभागचित्रं स्यात् इदानीं ग्रन्थोक्तभावविभाग अनुसारेण प्रागभाव निरूप्यते अस्ति कश्चित् घटनिर्माता सः घटनिर्माणाय मृदमाहरति जलं च आनयति तेन संयुक्ता मृदं भ्रमयितुं चक्रम् आनयति शुभं घटं चक्रात् पृथक् कर्तुं रजुं च आहरति तदा तादृशीं घटसामग्रीं दृष्ट्वा भवति ज्ञानम् अत्र घटो भविष्यति एतादृशज्ञानं घटाभाव प्रकाशयति इदानीं प्रथमं अभावस्य एकप्रकारस्य प्रागभाव प्रथम प्रागभाव तस्य निरूपणम् अस्ति यथा ग्रन्थे ग्रन्थो उक्ताभावविभागानुसारेण चतुर् अभावस्य प्रकारः अस्ति तस्य प्रथमं प्रागभाव तस्य प्रथमं निरूपणम् अस्ति घटनिर्माता इत्युक्ते कुलाल वा कुम्भार एक कश्चन कुम्भार अस्ति सः घटनिर्माणाय मृदम् आनयति अपि जलम् आनयति तेन संयुक्तां मृदं भ्रमयितुं चक्रम् आनयति जल मृदं तस्य मिश्रं भ्रमणं करणार्थं चक्रम् अपि आनयति सिद्धं घटं चक्रात् पृथक् कर्तुं रजुं च आहरति तदनन्तरं यदि घट निर्माणं भवति चक्रात् कथं तस्य पृथक् कर्तुं रज्ज्वा तस्य सहायम् अपेक्षति तत् अपि आनयति तदा तादृशी घटसामग्री दृष्ट्वा भवति ज्ञानम् अत्र घटो भविष्यति मृदं चक्रम् अपि जलं रज्जु कुलाल एते सर्वे दृष्ट्वा इति अनुमानं भवति कि अत्र घटस्य निर्माणं भविष्यति एतादृशज्ञानं घटाभावं प्रकाशयति किन्तु इदानीं घटनिर्माणं न अभवत् केवलं घटसामग्री अस्ति अतः घटनिर्माणस्य पूर्वं यत् सामग्री पूर्वक्षणे वयं पश्यामः तद् भवति अत्र घटस्य अभावः प्राग्भावः
बहु समीचीनमस्ति भगिनि अत्र घटो भविष्यति इत्युक्ते घटः अधुना नास्ति अग्रे भविष्यति इति दृष्ट्वा वयं किम् अनुभवामः घटाभावः अस्ति इति अनुभवामः खलु एतादृशज्ञानं घटाभावं प्रकाशयति कीदृशज्ञानं भगिनि
घटाभाव प्राग्भाव घटस्य निर्माणं पूर्वम्
एतादृशज्ञानं घटाभावं
घटनिर्माणस्य भाव
घटसामग्रीं दृष्ट्वा एकं ज्ञानं भवति अत्र घटो भविष्यति तदेव ज्ञानम् अत्र घटो भविष्यति इति ज्ञानं घटाभावं प्रकाशयति अस्तु फुट्नोट् इति अस्ति तृतीयं किम् अस्ति तत्र
तृतीयम् कुलाल द्वितीय अस्ति कुलाल तृतीयमस्ति प्रत्यय प्रत्यय ज्ञानं न्यायशास्त्रे ज्ञानस्य अन्य पदमस्ति प्रत्यय
बहु समीचीनमस्ति भगिनि तर्हि प्रत्ययः इति व्याकरणलोके तु प्रत्ययः इति सफिक्स् अस्ति परन्तु न्यायशास्त्रे प्रत्ययः इत्युक्ते ज्ञानं प्रतीतिः इति अपि तथा ज्ञानं अपि च घटनिर्माता इत्यस्य कुलालः इति नाम कुम्भकारः कुलालः इति मनसि भवेत् इति एव अस्ति कोऽपि प्रश्नः वा अत्र
एकः प्रश्नः अस्ति भगिनि यदि सामग्रीं दृष्ट्वा वयं जानीमः मृतम् उपयोज्य एकं वस्तु भविष्यति एव खलु घटः अपि भवितुम् अर्हति अथवा द्रोणीमपि भवितुम् अर्हति खलु
इति भवितुम् अर्हति भगिनि किन्तु ऊहा नाम अत्र तु विशिष्टप्रसङ्गः खलु कुलालः अस्ति इत्युक्ते घटनिर्माता कुलालः इति उक्तं तत्र कश्चित् कुलालः कुलालः किं करोति घटं निर्मातुमेव मृदम् आहरति इत्युक्ते आनयति जलं स्वीकरोति इति एव खलु
अस्तु घट इति घट पदस्य अत्र तु स्मृतम् उपयोज्य एकवस्तु तदेव डेफिनेशन् तादृशं भविष्यति वा?
तादृश हा सत्यं भगिनि, तथा चिन्तयितुं शक्नुमः. अत्र यतोहि घटनिर्माता इति उक्तं, कुलालः अथवा कुम्भकारः. अस्तु, मृदं स्वीकृत्य बहु किमपि निर्मातुं शक्नुमः इति भवत्याः विवक्षा खलु?
तदेव तदेव
इति स्यात्, परन्तु अत्र तु घटनिर्माता इति उक्तमेव इति कृत्वा घटः भविष्यति इति चिन्तनं मनसि भवेत् इति.
महोदय, भवती वदति घटाभाव अनुभवं भवति इति,
सत्यं.
पूर्वं यद् अभावः तद् अनुभवं कथं भविष्यति, कथं भवति?
घटः
नास्ति वा?
हा, घटः नास्ति इति एकः
अनुभवः. अतः अनुभवः कथं भवति?
घटस्य अनुभवः नास्ति महोदय. भवतः मनसि एवं स्यात् यद् अस्तु, तत्र वस्तु नास्ति, तर्हि कस्य अनुभवः इति भवतः मनसि स्यात् खलु?
तर्हि वस्तु अभावः अपि, अभावः तु वस्तु न,
अभावः अपि एकः पदार्थः न्यायशास्त्रे, सप्तपदार्थेषु अन्यतमः किल. सप्तपदार्थाः के? द्रव्यगुणं
स्वीकर्तुं किञ्चित् कष्टं भवति.
कल्पनां कर्तुं सत्यमेव, कल्पनां कर्तुं कश्चन क्लेशः भवेत्, परन्तु तत्तु आनुभविकं. यत्किमपि अस्माकं पुरतः नास्ति चेत् तत्तु आनुभविकं खलु. अस्तु, इदं नास्ति इति जानीमः एव इति अनुभवः, सः अनुभवः एव अभावः इति नैयायिकानां दृष्ट्या. तदर्थमेव अभावः इति पदार्थः. अस्तु अस्तु, समीचीनम्. अग्रे सरेम, तर्हि कः? अजितमहोदय कृपया.
अयमेव घटप्राक् अभावः ततः आरभ्य खलु. अयमेव घटप्रागभावः घटोत्पत्तेः प्राक्. सामग्रीसत्त्वे घटाधिकरणे प्रदीयमानः ज्ञायमानः. अत्रापि घटस्य अस्य अभावस्य च विरोधः प्रतियोगि अनियोगिभावः अस्ति. यदा प्रागभावः न तदा घटः, उत्पन्ने पुनर्घटेन घटप्रागभावः इति अस्ति. तयोः सहानवस्थानरूपविरोधः. तन्निरूपणप्रकारः पूर्वज्ञातव्यः. प्रागभावस्य निरूपणं भवति अस्मिन् प्रसङ्गे. अयमेव घटप्राभवः अभावः इत्युक्ते, यथा घटस्य पूर्वं घटः नास्ति तस्मिन् समये यथा भगिनी उक्तवती, अभावस्य अनुभवः अस्ति, तदेव घटप्रागभावः इत्युक्ते तस्मिन् समये घटः नास्ति. अपि च घटोत्पत्तेः प्राक् इत्युक्ते यथा कुलालः घटं निर्मायति तत्पूर्वं तस्मिन् पूर्वं सामग्रीसत्त्वे घटाधिकरणे प्रदीयमानः. सामग्रीसत्त्वे इत्युक्ते घटावयव वा अन्य सामग्री वा, तस्मिन् घटाधिकरणं प्रदीयमानः इत्युक्ते एतत् घटस्य प्रतीकं तस्मिन् अवसरे अस्ति इति.
प्रतीयमानः इति कीदृशं पदं जानाति वा? अस्तु, वर्धते वर्धते इति आत्मनेपदी क्रियापदमस्ति खलु तस्य शाणजन्तरूपम् अस्ति वर्धमानः
वर्धमानः अथवा ज्ञानमानः अपि तत् तादृशं रूपमेव
प्रतीयमानः प्रतीयते ज्ञायते शाणजन्तरूपं प्रतीयमानः ज्ञायमानः किं ज्ञान कः ज्ञायमानः अत्र
अत्र घटस्य अधिकरण
घटाधिकरणे किमपि ज्ञायमानम् अथवा प्रतीयमानम् अस्ति किं तद् घटप्राग् अभावः खलु ज्ञायमानः
अभावः प्रदीयमानः
अस्तु अग्रे
अत्रापि घटस्य अस्य अभावस्य च विरोधः अपि च अत्र
नमस्कारः
नमस्कारः राधिका भगिनी किम् अभवत् अस्तु महोदय अग्रे गच्छतु
आमाम् अभावस्य च विरोधः प्रतियोगि अनुयोगिभावः अस्ति इत्युक्ते वयं पूर्वं दृष्टवन्तः प्रतियोगि अनियोगिभावः वयं न दृष्टवन्तः खलु
दृष्टवन्तः तत्र घटस्य प्रागभावः इति उक्तं चेत् तत्र प्रतियोगी कः अनुयोगी कः
तत्र प्रतियोगिता घटे प्रतियोगिता अस्ति अभावे अनियोगिता अस्ति तथा अस्मिन् सन्दर्भे घटप्राभाव प्रागभावे अनियोगिता अस्ति इति वक्तुं शक्नुमः
अवश्यं वक्तुं शक्नुमः अभावः अस्तु तर्हि प्रतियोगिता कुत्र अस्ति
प्रतियोगिता
कस्य अभावः अयं
घटस्य अभावः
घटस्य अभावः चेत् प्रतियोगिता कुत्र वर्तेत
घटे वर्तते
घटे एव प्रतियोगिता अस्ति अस्तु घटः नास्ति अधुना अग्रे भविष्यति यः घटः तस्मिन् प्रतियोगिता वर्तते खलु तर्हि अधुना वदतु प्रतियोगी कः अनुयोगी कः प्रतियोगी अनुयोगी इति इनि प्रत्ययान्तपदद्वयम् अस्माभिः दृष्टं पूर्वमपि खलु महोदय यस्मिन् प्रतियोगिता सः प्रतियोगी
यस्मिन् प्रतियोगिता सः प्रतियोगी अस्ति चेत् तद् घटः प्रतियोगी अभावः अनियोगी
इत्येव अत्र उक्तम् अत्रापि घटस्य अस्य अभावस्य च विरोधः इति जानीमः द्वयोः विरोधः अस्ति द्वयोः मध्ये अतः प्रतियोगी अनियोगिभावः आगतः तावदेव
यदा प्रागभावः न तदा घटः तदेव वयम् उक्तवन्तः यदा प्राग् अभावः वर्तते तस्मिन् समये घटः नास्ति अनन्तरं घट वर्तते चेत् तत्र प्रागभावः अपि नास्ति इति वक्तुं शक्नुमः खलु उत्पन्ने पुनर्घटेन प्रागभावः उत्पन्ने पुनर्घटेन घटप्रागभावः इति अस्ति तयोः सहानवस्थानरूपः तदेव यदा प्रागभावः तस्मिन् समये घटः नास्ति अनन्तरम् उत्पन्ने घटप्रागभावः नास्ति घट उत्पन्नसमये घटप्रागभावः अभावः नास्ति
उत्पन्ने पुनर्घट इति सप्तमी सति सप्तमी प्रयोगः यदा घटः उत्पन्नः इत्येव वार्ता इत्येव वार्ता उत्पन्ने पुनर्घटे
घटप्रागभावः तयोः सहानवस्थानरूपः विरोधः इत्युक्ते एकस्मिन् समये अभावः अपि च घटः तिष्ठुं न शक्यते
बहु समीचीनम् इत्येव अस्ति. वयं दृष्टवन्तः पेज् 17 मध्ये सप्तदशे पुटे अस्ति. अनन्तरं पुनः पश्यन्तु वध्यघातकभावरूपः अपि च सहानवस्थानरूप इति विरोधद्वयं दृष्टवन्तः. सहानवस्थानरूपः इत्यत्र घटः घटाभावः एकस्मिन् समये एकस्मिन् स्थले न स्थातुं शक्नुमः इत्येव वार्ता. अस्तु,
तन्निरूपणप्रकारः
प्रश्नः अस्ति वा महोदय?
तत्र सामान्य अभाव अपि अस्ति.
हा हा, अवश्यम् अवश्यम्. यः कोऽपि अभावः
सामान्य अभावः प्राक् अभावः भेदः कः?
अस्तु, पूर्वं चित्रे किमस्ति इति पश्यतु महोदय. चित्रे, उपरितनचित्रे प्रभेदाः दत्ताः खलु, तत्र किमस्ति इति एकवारं विवृणोतु.
प्राग्भावः, प्रत्युंसभावः, अत्यन्त अभावः, अन्योन्यभावः. अत्यन्त अभावे त्रिविधाः, त्रिविभागः प्राग्भावसमये सामान्य अभावः अपि अस्ति
इति सत्यं. सम्यक् महोदय, अहम् अवगच्छामि भवान् यद् वक्तुम् इच्छति इति. तत्र इत्युक्ते प्राग्भावसमये अत्यन्ताभावः अपि भवितुम् अर्हति इति भवतः चिन्तनं खलु? अवश्यं भवति. परन्तु अस्माकं ज्ञानस्य विषयः कः इति चिन्तनीयम् अधुना. अस्तु, अत्र सन्दर्भः कः? घटसामग्री अस्ति पुरतः, तद्दृष्ट्वा मनसि आगच्छति खलु अग्रे घटः भविष्यति. इत्युक्ते अधुना घटो नास्ति, तादृश अभावः प्रागभावः इति उक्तः. तावत् भवान् यत् वदति तत् सत्यं. यः कोऽपि तत्र कस्यचित् मनसि घटाभावः इति अस्ति चेत् तत्तु अत्यन्ताभावः एव, तदपि सत्यम्. अस्तु अस्तु, अन्तिमवाक्यम् अजितमहोदय.
तन्निरूपणप्रकारः पूर्ववत् ज्ञातव्यः
इत्युक्ते सहानवस्थानरूपः इति प्रकारः पूर्वं दृष्टं, तत्र पूर्ववत् प्लस् ज्ञातव्यः इति श्रुत्वसन्धि भूत्वा तथा अभवत्. श्रुत्वसन्धि अपि च प्रायः जष्ट्वसन्धि इति कृत्वा पूर्ववत् ज्ञातव्यः इति अभवत्. समीचीनम्. अस्तु, अग्रिमपृष्ठे प्रथमचित्रं किञ्चित् प्रदर्शयतु.
प्रथमचित्रमस्ति प्रतियोगिता, घटनिष्ठप्रतियोगिता, निरूपित अनियोगिता, आश्रयः घटप्रागभावः, अथवा अनियोगिता निरूपणमस्ति घटनिष्ठप्रतियोगिता निरूपित घटप्रागभावनिष्ठा अनियोगिता इति.
बहु समीचीनम् इत्येव वार्ता. अधुनैव उक्तं घटप्रागभावः इत्युक्ते किम् इति. सामग्रीं दृष्ट्वा मनसि अग्रे घटः भविष्यति इति यदा चिन्तनम् आगच्छति तदा यः अभावः प्रतीयते सः प्रागभावः, घटप्रागभावः इति उच्यते. अस्तु, इति सम्यक्. अभावस्य प्रथमः प्रभेदः. द्वितीयप्रभेदः कः इति अग्रे पश्येम. मेहुल महोदय पठितुम् इच्छति न वा? अस्तु महोदय, अस्तु. तर्हि आन्ड्रे महोदय पठितुमिच्छति वा अग्रे? आन्ड्रे महोदय म्यूट् मध्ये अस्ति.
पठामि भगिनि. एवं घटे मुद्गरपाते सति अत्र घातो ध्वस्तः इति प्रतीतिः जायते. एतादृशप्रतीतौ यः प्रकाश्यते सः घाटध्वंसः, द्वितीयः अभावः. तावत्.
अत्र किमुक्तम्?
किमुक्तम् अत्र मुद्गर तत्र संस्कृतेन को प्रत्ययः, को पर्यायः, कः पर्यायः न जाय हामर् इति स्यात् तत्र पर्यायः संस्कृते एव इदानीं तत्र यदा घटः ध्वस्तः भवति तथा एव अस्माभिः ज्ञायते अयं घटः ध्वस्तः इति प्रचितिः अस्माकं तत्र जायते भवतु एतादृशप्रचीतौ यः प्रकाश्यते सः यः विषयः एतस्यां प्रचीतौ प्रकाश्यते सः घटध्वांसः नाम द्वितीयः अभावः द्वितीयः ध्वांस अभावः सः तत्र अस्मिन् अस्यां प्रचीतौ विषयी भूतः भवति.
हा समीचीनं महोदय, तर्हि उपरितनचित्रं किञ्चित् विवृणोतु.
एवं यथा अस्माभिः तत्र सामान्याभावम् आदाय यत् दृष्टम् अत्रापि प्राग्भावम् उद्दिश्य अपि दृष्टं तद् एवं यथा घटः वर्तते तस्य प्रतियो तस्य विरुद्धः पदार्थः घटध्वांसः वर्तते तयोर् उभयोर्सहानवस्था वर्तते अत एव घटः तत्र प्रतियोगी घटध्वांसः तथा अनुयोगी अत एव घातनिष्ठप्रतियोगिता निरूपितनुयोगिता आश्रयः घातध्वांसः इति वक्तुं प्रभामः.
हा बहु समीचीनं महोदय, सम्यक् इति महोदयेन सर्वम् उक्तं. घटः प्रतियोगी घटध्वंसः, ध्वंसः इत्युक्ते अपि अभावः, द्वितीयविध अभावः प्रध्वंसाभावः इति दृष्टं खलु, सः एव अभावः घटध्वंसः. घटध्वंसः अथवा अभावः ध्वंसाभावः अनुयोगी भवति. कोऽपि प्रश्नः वा कस्यचित् अत्र? तर्हि चतुर्विध अभावेषु विधद्वयम् अस्माभिः दृष्टं, प्रागभावः प्रध्वंसाभावः इति. घटस्य उपरि किमपि पातयतु, शिलाखण्डं वा मुद्गरम् इत्यादिकं पातयति चेत् घटः नष्टः भवति, तदा प्रध्वंसाभावः इति वदामः. समीचीनम्, अस्तु. अधुना तृतीयविध अभावः. एण्ड्रे महोदय, भवान् एव अग्रे किञ्चित् पठतु कृपया.
अचान्ताभावस्तु प्राक् निरूपितः, भूतले घटो नास्ति इति अभावः. गततनिष्ठावच्छेदकता निरूपितावच्छेद्यतवची या प्रतियोगिता तन्निरूपकः अभावः. तन्निरूपक अनुयोगितः अथवा तन्निरूपकः अभावः. एवं पतो नास्ति इति पतत्वावच्छिन्नप्रतियोगिता कः? भवतु अत्यन्ताभावः दृष्टः अस्माभिः प्राक् एव. तत्र यदा ज्ञानस्य अकारः भूतले घटो नास्ति इति भवति, सः एतद् ज्ञानं सामान्य अभावम् अत्यन्त अभावं विषयीकरोति एव. अत एव अस्माभिः घटत्वनिष्ठ अवच्छेदकता निरूपितावच्छिद्यतावची प्रतियोगिता, सा प्रतियोगिता अधिक अनुयोगितया एव निरूपिता वा अथवा एवम् अभावेन एव निरूपिता भवति. एवं सा या प्रतियोगिता या प्रतियोगिता कतनिष्ठा गतनिष्ठावच्छेदकता निरूपितावच्छिद्यतावचि या प्रतियोगिता तद् निरूपक तस्याः निरूपकः अभावः यः, सः अत्यन्ताभावः एव. एवम् एव.
बहु समीचीनं महोदय, सर्वैः बुद्धं वा? तन्निरूपकः अभावः महोदयेन यदुक्तं, तस्याः निरूपकः अभावः. तस्याः इत्युक्ते प्रतियोगितायाः, अपि च प्रतियोगिता कीदृशी इति अपि दत्तं. घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावति. इदानीमेव अस्माभिः गृहपाठत्वेन यद् कृतम् अवच्छेद्य अवच्छेदकभावविषये तत्र परिशीलितं खलु, तद्वदेव. घटे घटत्वमस्ति, घटत्वे अस्ति अवच्छेदकता, अपि च प्रतियोगितायामस्ति अवच्छेद्यत इति कृत्वा एतादृशी प्रतियोगिता तस्य निरू तस्याः निरूपकः तन्निरूपकः अभावः कीदृशः आण्ड्रे महोदय
किम्
अयम् अयम् अभावः तन्निरूपकः अभावः कीदृशः एकनिमिषः अजित् महोदय म्यूट् करणीयं भवता कृपया कोऽपि ध्वनिः श्रूयते हा सम्यक् अस्तु अग्रे महोदय आण्ड्रे महोदय अग्रे कृपया
एवं पतो नास्ति इति यः अभावः वर्तते इति पतो नास्ति इति अकारकः अत्यन्ताभावः यः सः अभावः पतत्वावच्छिन्नप्रतियोगिताकः अथवा सः एव पतत्वावच्छिन्नप्रतियोगिता निरूपकः एवं यत् उक्तं तदेव अन्यया रीत्या तत्र एव प्रदर्शयति
हा हा बहु सम्यक् अत्र नूतनं किमपि आगतम् अवच्छिन्न इति तत्र भीतिः मास्तु किमपि नूतनं नास्ति पटत्वावच्छिन्न इत्युक्ते पटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता वति पटत्वनिष्ठ अवच्छेदकता निरूपित प्रतियोगिता एव पटत्वावच्छिन्न प्रतियोगिता तावदेव लघुना मार्गेण अवच्छेदकता निरूपित अवच्छेद्यत एतत् सर्वं संक्षिप्तरूपेण वक्तव्यं चेत् पटत्वावच्छिन्न प्रतियोगिता इति वदामः घटत्वावच्छिन्न प्रतियोगिता अस्तु तत्र पुनः पटः नास्ति इति पटस्य अत्यन्ताभावः कीदृशः इति चेत् पटत्वावच्छिन्न प्रतियोगिता कः इति उक्तम् तत्र कः इति समासान्तप्रत्ययः अस्ति अभावस्य विशेषणम् अभावः कीदृशः पटत्वावच्छिन्नप्रतियोगिता कः समासः कः इति चेत् अभावः प्रतियोगिता यस्य सः तादृशः अभावः कीदृशप्रतियोगिता पटत्वावच्छिन्नप्रतियोगिता तर्हि पटत्वावच्छिन्नप्रतियोगिता यस्य सः तादृशः अस्ति पटत्वावच्छिन्नप्रतियोगिता कः अभावः इति वार्ता स्पष्टमस्ति वा सर्वेषां मनसि स्पष्टता अस्ति अग्रे सर्तुं शक्नुमः प्रश्नाः सन्ति चेत् कृपया पृच्छन्तु तूष्णीं भवन्ति चेत् अहं किमपि न अवगन्तुं शक्नोमि अस्तु
महोदय अत्र अत्यन्त अभावे घटः अस्ति घटः नास्ति इति अपि वयं लघुमार्गेण वक्तुं शक्नुमः न अत्यन्ताभावः
हा घटः नास्ति इति अत्यन्ताभावः तावदेव महोदय
तावदेव लघुमार्गेण वक्तुं शक्नुमः अस्ति नास्ति इति एतस्य उपयोगः घटः अस्ति घटः नास्ति
घटः अस्ति इति अभावस्य विषयः नास्ति
घटः नास्ति इति अभावस्य विषयः
हा घटः नास्ति इति वदतु अथवा घटाभावः अस्ति इति वदतु
घटः अस्ति इति अभावस्य अभावः घटः अस्ति इति
अभावस्य अभावः आम् अवश्यम्
अभावस्य अभावः अस्ति तर्हि अभावस्य अभावस्य अभावः
अभावस्य अभावः इति वक्तुं शक्यते परन्तु अन्ततो गत्वा अयम् अत्यन्ताभावः यतोहि अयं ज्ञानस्य आकारः कीदृशः इति चेत् केवलं घटः नास्ति घटस्य ध्वंसः जातः तदर्थं घटः नास्ति इति न अथवा घटसामग्री अस्ति घटः अग्रे भविष्यति तादृशः अभावः अपि न अत्यन्ताभावः इत्युक्ते घटः नास्ति इति आकारकः आकारकं ज्ञानं तावदेव घटसामग्रीं दृष्ट्वा अग्रे घटः भविष्यति तादृशमपि नास्ति घटध्वंसेन जातं ज्ञानमपि नास्ति इति अत्यन्ताभावः अस्तु समीचीनं
भगिनि एकः प्रश्नः घटः नास्ति इति वक्तुं शक्नुमः वा इत्युक्ते घटः इति पदार्थः कुत्रापि अस्ति खलु घटः नास्ति इति वयं वक्तुं शक्नुमः वा
अत्र घटः नास्ति इति एव वक्तुं शक्नुमः महोदय भूतले घटः नास्ति इति एव
तदेव
अपरत्र कुत्रचित् स्यात् परन्तु अत्र नास्ति
इति अधिकरणस्य निश्चयेन वक्तव्यम् अधिकरणं तत्र कुत्र नास्ति भूतले नास्ति वा काले नास्ति इति
वक्तव्यमेव. अस्तु अस्तु तर्हि प्रागभावः प्रध्वंसाभावः अत्यन्ताभावः इत्येषां परिचयः जातः. अवशिष्टमस्ति अन्योन्याभावः. तदर्थम् इतोपि किञ्चित् ज्ञातव्यमस्ति. तद् किमिति पश्येम अग्रे. विजया भगिनी पठति वा अग्रे?
पठामि भगिनि. अन्यान्यभावनिरूपणाय तादात्म्यसम्बन्धादिनिरूपणमादौ क्रियते. अग्रे पठामि वा?
हा, अत्र अस्मिन् वाक्ये किमपि नास्ति. अन्योन्याभावनिरूपणम् इति अग्रे कर्तव्यं. चतुर्थः अभावः. तस्य निरूपणार्थं तादात्म्यसम्बन्धः इत्युक्ते किम् इति ज्ञातव्यम्. अस्तु भगिनि, अग्रे गच्छतु.
तादात्म्यम् इत्युक्ते भेदः एव खलु?
अग्रे पश्येम भगिनि, अग्रे पठतु.
द्रव्ययोः संयोगः समवायनिरूपणे उक्तः. अभावः प्रतियोगिता अनियोगिता इत्यादयः. पदार्थेषु पदार्थः तु न संयोगेन सम्बद्धाः भवन्ति. द्रव्ययोरेव संयोगः इति नियमात् नापि समवायेन. समवायः तु गुणागुणिनोः क्रियाक्रियावतोः जातिव्यक्तोः अवयविनोः विशेषनित्यद्रव्ययोः एव इति उक्तमेव. अतः अभावादिपदार्थानाम् आधार आधेयभावनिर्वाहाय सरूपसम्बन्धः इति सम्बन्धः कल्प्यते.
प्रयत्नं करोतु.
द्रव्ययोः संयोगः इत्युक्ते तत्र सम्बन्धः अस्ति. समवायसम्बन्धः इति द्रव्ययोः अस्ति. द्रव्ययोः इत्युक्ते तत्र पृथिव्यां गुणः अस्ति इति
चिन्तनीयम्. एवं कुर्मः. द्रव्ययोः संयोगः इत्युक्ते द्वयोः द्रव्ययोः मध्ये उत्पीठिकायां लेखनी अस्ति, उत्पीठिकायां कागदम् अस्ति, द्रव्यद्वयं खलु, तयोः मध्ये संयोगः. अपि च कुत्रचित् समवायः अपि भवति. कुत्र इति पुनः चतुर्दशपुटं प्रति गच्छतु. तत्र पेज् 14 इति उक्तं खलु, तत्र गच्छतु. पञ्चदशपुटं पश्यतु. तत्र एकं चित्रमस्ति. सर्वे पश्यन्ति वा? पञ्चदशे पुटे
पाषाणः इति वा
भगिनि? पञ्चदश, 15,
पृष्ठसङ्ख्या
पञ्चदश.
द्रव्यं द्रव्ये गुणः क्रियः सामान्य विशेष एतत् वा?
हा, एतदेव. तत्र किम् उक्तं? द्रव्ययोः मध्ये संयोगः इति उक्तं खलु. पुस्तकं पुस्तके लेखनी अस्ति इति
संयोगः.
हा, परन्तु
सम्बन्धः नास्ति.
शृणोतु भगिनि, संयोगः भवति उभयोः द्रव्ययोः मध्ये, घटपटयोः मध्ये, पुस्तकलेखनयोः मध्ये इत्यादिकं. परन्तु एकं द्रव्यम् अवयवी अस्ति चेत्, अपि च अपरं द्रव्यम् अवयवः अस्ति चेत् तयोः मध्ये कः सम्बन्धः स्यात्?
आधारादेयसम्बन्धः.
रघुपतिमहोदय, समवायसम्बन्धः. बहु समीचीनम् इत्येव अत्र प्रदर्शितं. विजया भगिनी, समवायसम्बन्धः पञ्चसु स्थलेषु भवति. कुत्र? वक्तुं शक्नोति वा चित्रं दृष्ट्वा?
द्रव्ये गुणे श्रीये सामान्यरूपे विशेषरूपे अपि समवायसम्बन्धः अस्ति.
अस्तु, रघुपति महोदय वक्तुं शक्नोति वा समवायः कुत्र कुत्र इति?
द्रव्ये गुण, द्रव्ये क्रिया, कपालावयवः, कपाल अवयविनः, द्रव्यगुणः, द्रव्यरूपादिगुणः, द्रव्यक्रिया.
विजया भगिनि,
सहसम्बन्धः एव समवायः. अवयव अवयव अवयवीनोः, गुणगुणिनोः, क्रियाक्रियावतोः, जातिव्यक्त्योः, विशेषनित्यद्रव्ययोः च अयमेव समवायसम्बन्धः इति तत्त्वमस्ति.
हा, उत्तमं वा. यत्र द्रव्यद्वयमस्ति, एकः अवयवः अपरः अवयवी, तर्हि अवयव अवयविनोः यथा घटकपालः तयोः मध्ये समवायः. पुनः गुणगुणिनोः इत्युक्ते रूपम् इति गुणः, अपि च गुणवत् द्रव्यं, तयोः मध्ये अपि कः सम्बन्धः? समवायः सम्बन्धः. पुनः क्रियावत् द्रव्यमस्ति, उत्क्षेपणम् इति क्रिया अस्ति तस्मिन्, तत्रापि समवायः. जातिव्यक्त्योः, जाति घटत्वं पटत्वम् इत्यादिकं, व्यक्तिः इत्युक्ते घटः पटः, जात्यां सदस्याः, तर्हि जातिव्यक्त्योः मध्ये समवायः. पुनः अन्ततो गत्वा विशेषः इति कुत्र वर्तते? नित्यद्रव्येषु एव वर्तते विशेषः, तर्हि विशेषनित्यद्रव्ययोः अपि समवायसम्बन्धः इति उक्तम्. अतः समवायः इति पञ्चस्थलेषु एव वर्तते, तर्हि एतावता अस्माभिः संयोगसम्बन्धः समवायसम्बन्धः इति परिशीलितं खलु. अधुना पुनः गच्छतु भगिनि, पुनः तत्र अस्माकं मूलपुटे 27 पृष्ठसङ्ख्या, तत्र गच्छतु 28 क्षम्यताम् 28 पृष्ठसङ्ख्ये यद् भवती पठितवती तत्र गच्छतु. अग्रे पठतु भगिनि.
अहमेव खलु?
हा भगिनि, भवती एव पठतु अग्रे. हा,
द्रव्ययोः संयोगः समवायनिरूपणे उक्तः. वयं इदानीमेव दृष्टवन्तः अभावः प्रतियोगिता. अभावः इत्युक्ते तत्र द्रव्यं नास्ति, प्रतियोगितायाः अनियोगिता इत्यादयः पदार्थः तु न संयोगेन सम्बन्धाः भवन्ति. प्रतियोगिता विरोधभावः, अनियोगिता इति इत्यादयः पदार्थेषु संयोगेन समवायः इति सम्बन्धः नास्ति. तत्र द्रव्ययोः एव संयोगः इति नियमात्. द्रव्ययोः वयम् इदानीमेव दृष्टवन्तः, द्रव्ययोः एव संयोगः समवायसम्बन्धः इति वयं ज्ञातुं शक्नुमः, नापि समवायेन. एतस्य किमर्थं भगिनि?
द्रव्ययोः संयोगः इति नियमात्, नापि समवायेन इति पूर्वस्मिन् वाक्ये अन्वयः अस्ति. नाम अभावः प्रतियोगिता अनियोगिता पदार्थाः संयोगेन सम्बद्धाः न भवन्ति, यतोहि द्रव्ययोरेव संयोगः इति नियमात्, नापि समवायेन. यतोहि किमर्थम् इति अग्रे उक्तं, पठतु.
समवायः तु गुणगुणिनोः, क्रियाक्रियावतोः, जातिव्यक्तयोः, अवयवी अवयव अवयवीनोः, विशेषनित्यद्रव्ययोः एव इति उक्तं. वयं इदानीमेव दृष्टम्. अतः अभावादि पदार्थानाम् आधार आदेयभावनिर्वाहाय निरूपणाय स्वरूपसम्बन्धः इति सम्बन्धः कल्प्यते.
हा, इत्युक्ते भगिनि अभावः इति द्रव्यं नास्ति, गुणः नास्ति, क्रिया नास्ति, अभावः इति पृथक् पदार्थः खलु. वयं दृष्टवन्तः संयोगः कुत्र भवति, समवायः कुत्र भवति इति. तेषु स्थलेषु अभावः नास्ति खलु? पञ्चसु स्थलेषु यत्र समवायः तत्र अभावः नास्ति, प्रतियोगिता नास्ति, अनुयोगितापि नास्ति. तर्हि अभावादिपदार्थानाम् इत्युक्ते अभावः, प्रतियोगिता, अनुयोगिता इत्यादीनाम् आधाराध्येयभावनिर्वाहाय नूतनः एकः सम्बन्धः कल्प्यते, सः एव स्वरूपसम्बन्धः. स्वरूपसम्बन्धः अत्र एकं फुट्नोट् अस्ति, दैशिकविशेषणता इति वा संज्ञा इति. अग्रे गत्वा इतोपि जानीमः तत्र स्वरूपसम्बन्धस्य प्रभेदद्वयमस्ति, दैशिकविशेषणता, कालिकविशेषणता इति. अस्तु, इदानीं घटाभावः भूतले अस्ति इति वदामश्चेत्, भूतले इति देशः, घटाभावस्य देशः कः इति सूचितं, तत्र दैशिकविशेषणतासम्बन्धः आगच्छति. घटाभावः अस्मिन् समये इत्युक्ते यत्र कालः इति अधिकरणम् अस्ति तत्र कालिकविशेषणता इति स्वरूपसम्बन्धः आगच्छति. नाम स्वरूपसम्बन्धः इत्युक्ते वयं घटः अस्ति अथवा घटः नास्ति इति घटस्य स्वरूपेण एव ज्ञातुं शक्नुमः, स्वरूपं दृष्ट्वा. घटः अस्ति चेत् घटस्य स्वरूपेण घटः प्रतियोगी इति ज्ञातुं शक्नुमः खलु. घटः स्वयं प्रतियोगिता, घटः स्वयं तस्य स्वरूपेण इव वयं घटस्य प्रतियोगितां दर्शयितुं शक्नुमः, अतः एव स्वरूपसम्बन्धः इति उक्तः. तादृशसम्बन्धः भवति अभावस्थले. अस्तु,
घटत्व अभावः भूतले, भूतले अस्ति, भूतले अस्ति, भूतले नास्ति इति वा?
घटाभावः भूतले अस्ति केन सम्बन्धेन इति प्रश्नः, तर्हि स्वरूपसम्बन्धेन इति, यतोहि संयोगसम्बन्धेन न भवितुमर्हति, समवायसम्बन्धेन न भवितुमर्हति किल. उदं वा?
ध्वंसः भवति, घट अवयव द्रष्टुं शक्नुमः.
महोदय, अत्र वार्ताद्वयमस्ति, एकनिमिषः, अत्र वार्ताद्वयमस्ति. घटः ध्वंसः इति उक्तं भवता खलु, घटध्वंसः इत्युक्ते किम्?
घटस्य नाशः भवति, नाशः
इत्युक्ते सप्तपदार्थेषु कः पदार्थः अभावः किल, घटाभावः. घटध्वंसः इत्युक्ते घटाभावः, सप्तपदार्थेषु अभावः इति पदार्थः. अधुना प्रश्नः कः इति चेत्, अभावः कुत्रचित् अस्ति चेत् केन सम्बन्धेन भवति इति.
अवयव द्रष्टुं शक्नुमः
घटस्य, न न घटः, एकनिमिषः, घटः नष्टः इति घटस्य अवयवाः ये सन्ति ते अवयवाः द्रव्याणि खलु, भग्नः, कपालः इति किमपि. द्रव्यं भूतले अस्ति संयोगसम्बन्धेन इति सत्यं, परन्तु घटः नष्टः इत्युक्ते घटाभावः. तर्हि अस्माभिः किं चिन्तनीयम् इति चेत्, घटाभावः भूतले अस्ति केन सम्बन्धेन इति. उद्दं वा महोदय? अत्र वार्ताद्वयं, घटः नष्टः, घटस्य भग्नः, कपालः इति सर्वम् अस्ति तत्र भूतले इति सत्यमेव, किन्तु कपालः तु द्रव्यं. द्रव्यं द्रव्ये केन सम्बन्धेन भवति?
संयोगः अस्ति,
हा संयोगः अस्ति, किन्तु द्रव्यद्वयम् अवयव अवयवी चेत्
समवायः,
समवायः इति सम्बन्धद्वयम् अस्माभिः ज्ञातं. नूतनसम्बन्धः अभावकल्पनाय, अभावस्य आधारादेयभावनिर्वाहाय नूतनसम्बन्धः अधुना आगतः, स्वरूपसम्बन्धः इति. बुद्धं? सम्यक्. अस्तु, रघुपतिमहोदय कृपया अग्रे किञ्चित्.
आम् भगिनि, अभावः भूतले स्वरूपसम्बन्धेन भवति, प्रतियोगिता घटे स्वरूपसम्बन्धेन भवति, पूर्वोक्त अवच्छेदकतापि घटत्वे स्वरूपसम्बन्धेन दैशिकविशेषणतया भवति. एवं घट,
अस्तु अग्रे चित्रं किञ्चित् वदतु.
हा, घट घटत्वाभावः भूतले घटत्वाभावः अस्ति दैशिकविशेषणतास्वरूप सम्बन्धः दैशिकविशेषणस्वरूपः प्रतियोगिता घटे प्रतियोगिता अस्ति दैशिकविशेषणतास्वरूपम् अवच्छेदकता दैशिकविशेषणतास्वरूपं स्वरूपवत् घटत्वं घट अवच्छेदकता घटत्व घटत्वं घटत्वे अस्ति दैशिकविशेषण
अत्र अत्र कथं वक्तव्यम् इति चेत् घटाभावः दैशिकविशेषणतया भूतले अस्ति वदतु एकवारं प्रतियोगिता
प्रतियोगिता दैशिकविशेषणतया घटे अस्ति अवच्छेदकता अपि दैशिकविशेषणता विशेषणतया घटत्वे अस्ति
घटत्वे अस्ति तथा वक्तव्यं यतोहि वयं किं कथं वदामः भूतले संयोगेन पटः अस्ति इति वदामः खलु तद्वत् केन सम्बन्धेन इति प्रश्ने कृते दैशिकविशेषणतया अथवा दैशिकविशेषणतस्वरूपेण अथवा स्वरूपसम्बन्धेन तादृश व्यवहारः भवति अस्तु अस्तु वस्तुतः अत्र घटत्वाभावः प्रतियोगिता अवच्छेदकता इति न द्रव्यं न वा गुणः न वा क्रिया तर्हि संयोगः समवायः कार्यं न करोति खलु अत्र इति कृत्वा नूतनसम्बन्धः स्वरूपसम्बन्धः आगतः समीचीनं महोदय अग्रे
अग्रे एवं घटादिपदार्थानां स्वस्मिन् एव यः सम्बन्धः सः तादात्म्यसम्बन्धः इत्युच्यते घटादिपदार्थानां स्वस्मिन् एव यः सम्बन्धः दैशिकविशेषणता विशेषणरूपसम्बन्धः सः एव
अत्र किञ्चित् वक्तव्यमस्ति अधुना नूतनसम्बन्धद्वयं दृष्टं स्वरूपसम्बन्धः अपि च तादात्म्यसम्बन्धः इति घटादिपदार्थानां स्वस्मिन्नेव यः सम्बन्धः सः तादात्म्यसम्बन्धः इति चतुर्थः नूतनसम्बन्धः तादात्म्यसम्बन्धस्य प्रयोगः कुत्र भवति इति चेत् अन्योन्याभावस्य निरूपणाय भवति इत्युक्ते घटः स्वस्मिन् तादात्म्येन अस्ति इति वक्तुं शक्यते पटः स्वस्मिन् तादात्म्येन अस्ति इति वक्तुं शक्यते तदर्थमेव उक्तं घटादिपदार्थानां स्वस्मिन् एव यः सम्बन्धः सः तादात्म्यसम्बन्धः तदात्मा तद् प्लस् आत्मा तस्य भावः तादात्म्य अस्तु सर्वं जगति सर्वं सर्वे पदार्थाः स्वस्मिन् तादात्म्यसम्बन्धेन वर्तन्ते इति वार्ता अहमस्मि अहं मयि तादात्म्येन अस्मि तथा बुद्धम् अस्तु हा स्वरूपसम्बन्धः अपि च तादात्म्यसम्बन्धः इति एकः नूतनसम्बन्धः तर्हि तस्य अवगमनार्थम् इतोपि किञ्चित् वक्तव्यमस्ति एवं कुर्मः अग्रिमपरिच्छेदं पठित्वा समापयामः भानुचैतन्यमहोदय पठति वा अग्रे
आं महोदय इदम् अस्य कारणमिति वक्तुं निकषाः तथा हि कार्यकारणभावविचारे उत्पत्स्यमानं यत् कार्यं तत् प्रति किं कारणं भवितुम् अर्हति इति विचारे आदौ तेन कार्याधिकरणे भाव्यम् इति चिन्तितम् यदि हस्तमलनिवारणं जलेन कर्तुम् इच्छति चेत् यत् हस्ते बलः अस्ति यत्र मलनिवारणरूपं कार्यं कर्तव्यं तत् हस्ते एव जलसंयोगः आवश्यकः न तु अन्यस्मिन् हस्ते भूतलादौ वा अतः कार्यम् इति यत् वयं मन्यामहे तस्य अधिकरणे कारणम् इति यत् निर्धारणीयं तेन स्थातव्यम्.
अत्र किमस्ति
निकषाः इत्युक्ते किं महोदय?
निकषाः इत्युक्ते नियमाः इति चिन्तयतु. निकषः इत्युक्ते वस्तुतः टच् स्टोन् इति वदन्ति खलु, किमपि सम्यक् अस्ति न वा इति परिष्कारं परिशीलनार्थं यदुपयुज्यते सः.
भगिनी, निकषाः इतोपि अन्य अर्थः अपि अस्ति खलु, समीपे इति
किं समीपे?
समीपे,
सत्यं सत्यं भगिनि, इति सत्यमेव सत्यम्. परन्तु अत्र निकषः इत्युक्ते नियमः, क्रैटीरियन् इति चिन्तयतु, क्रैटीरियन् अथवा टच् स्टोन् इति अपि वदामः. इत्युक्ते किमपि कस्य कारणमस्ति इति वक्तुं क्रैटीरियन् किं, निकषः कः इति वार्ता. किमर्थम् इदं पठामः इति चेत् तादात्म्यसम्बन्धस्य अवगमनार्थम् अस्तु इति मनसि भवेत्. अस्तु महोदय, अत्र किम् उक्तम् इति वदतु किञ्चित्.
काल् इति किम् आङ्ग्लभाषायाम् इति चिन्तयामः किं तत्र
किं
विषयं कारणम् इति
कारणं कारणम् इत्युक्ते कार्यकारणभावः इति कार्यम् इत्युक्ते यत्किमपि जातं, यत्किमपि क्रियते. कारणम् इत्युक्ते इन्स्ट्रुमेण्टालिटि तथा चिन्तयतु, उपकरणं साधनम्. अस्तु अग्रे पठतु. तथा हि
तदा हि कार्यकारणभावविचारे कार्यकारण
कार्यकारण
विचारणं कारणभाव.
अस्तु अहमेव किञ्चित् स्थूलरीत्या वदामि, पुनः अग्रिमसप्ताहे कुर्मः. उत्पत्स्यमानं यत् कार्यम्, उत्पत्स्यमानम् इत्युक्ते उत्पद्यते इत्यस्य भविष्यत्कालप्रयोगः, उत्पत्स्यते. पुनः तत्र शाणज् उत्पत्स्यमानं यद् कार्यम्, उत्पत्स्यमानं कार्यं प्रति कारणं किं भवति इति विचारः करणीयः चेत् तदा आदौ कार्याधिकरणे भाव्यम् इति चिन्तनीयम्. इत्युक्ते यत्किमपि वयं कारणमिति मन्यामहे तेन कार्याधिकरणे, कार्यस्य अधिकरणे स्थातव्यम् इति वार्ता. इदानीं हस्ते मलम् अस्ति, एकस्मिन् हस्ते मलम् अस्ति चेत् हस्तमलनिवारणम् इति कार्यं वयम् इच्छामः चेत् जलं कुत्र स्थापयामः?
मलहस्ते.
हा, मलगतहस्ते स्थापयामः, न तु पादे अथवा परस्मिन् हस्ते खलु. तर्हि हस्तः इति कार्याधिकरणम्. अस्तु, कार्यस्य अधिकरणं हस्तः, मलनिवारणम् इति कार्यं, जलसंयोगः इति कारणं भवति. कारणम् इत्युक्ते येन कार्यं जायते, इन्स्ट्रुमेण्ट् अथवा उपकरणं तादृशं. तर्हि अत्र प्रथमः निकषः अस्ति, कारणमिति यद् मन्यामहे तत् कार्यस्य अधिकरणे भवेत्, नाम जलसंयोगः, मलनिवारणं यत्र अपेक्षितं तत्र भवेत् इति. उक्तं वा?
प्रैमरी क्रैटीरियम् इति
प्रथमः निकषः इति चिन्तयतु. अस्तु, पुनः आगत्य पठेम अग्रिमसप्ताहे, किन्तु तादात्म्यसम्बन्धस्य विचारस्य स्पष्टीकरणार्थमेव अयं भागः. अन्ततो गत्वा अद्यतनसारांशः अस्ति, अभावः चतुर्विधः, प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावः च अन्योन्याभावः. पुनः अत्यन्ताभावस्य त्रैविध्यं, सामान्याभावः, विशेषाभावः, विशेषविशेषाभावः इति अस्माभिः दृष्टं. तत्र च प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावः ज्ञातः अस्माभिः. अन्योन्याभावः इत्युक्ते किम् इति ज्ञातुं तादात्म्यसम्बन्धस्य ज्ञानम् अपेक्षितं. तद् इतोपि विशदरीत्या अग्रिमसप्ताहे परिशीलयामः. अन्यच्च नूतनसम्बन्धद्वयम् अस्माभिः अधीतं, स्वरूपसम्बन्धः, अभावः, प्रतियोगिता, अनियोगिता इत्यादीनाम् आधाराधेयभावनिर्वाहाय स्वरूपसम्बन्धः आवश्यकः, अपि च तादात्म्यसम्बन्धः. सर्वं स्वस्मिन् तादात्म्यसम्बन्धेन वर्तते. तादात्म्यसम्बन्धम् अवगत्य अन्योन्याभावम् अपि अवगच्छामः इति. अस्तु, एतावता कोऽपि प्रश्नः वा?
भाव्यम् अत्र प्रत्ययः
कः? सद्धिदान्त महोदय, क्षम्यता, कृदन्त, न कृदन्त, कृदन्त भूधातुतः ण्यत् इति प्रत्ययः. भाव्यं कार्यं तथा कर्मण्यर्थे, कर्मण्यर्थे विद्यमान अच भू इति अजन्तदातु खलु, अचो ण्यत् इति, हा ण्यत् इति प्रत्ययः. अस्तु अस्तु, तर्हि अत्र विरमामः. धन्यवादाः.
धन्यवादः.
बहु धन्यवादः महोदय.
धन्यवादः.
धन्यवादः.